ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषय आसीत् तत्र कालः इति, कालस्य लक्षणे कालः, तदनन्तरं तत्र धिक् इति विषयस्य निरूपणं वयं कृतवन्तः। इदानीम् अग्रे सरामः, तत्र नूतनविषयः अस्ति तत्र आत्मा इति। अतः तत्र अद्यतनविषयः तत्र भवति तत्र आत्मनः निरूपणम् इति। तत्र लक्षणवाक्यं पठामः, तदनन्तरं करपत्रमपि तत्र मया प्रेषितमस्ति, तत् करपत्रमपि पठामः। किन्तु तत्र केवलम् एकः अंशः अस्ति तत्र यद् वक्तव्यः अस्ति तत्र धिक् इति विषये। तत्र धिक् इति स्त्रीलिङ्गपदम् इति जानीमः, अपि तत्र गतवर्गे तत्र पुस्तके अपि तत्र प्राची, प्रतीची, उदीची, अपाची इति नाम प्राची इत्युक्ते पूर्व दिक्, प्रतीचि इत्युक्ते पश्चिम, उदीचि इत्युक्ते उत्तर, अपाचि इत्युक्ते दक्षिण इति तत्र भवति। किन्तु तत्र एकः अंशः तत्र अस्ति, तद् समीचीनः अंशः अस्ति, नाम तत्र पश्चिम, उत्तर, दक्षिण इति, तत्र पूर्व, पश्चिम, उत्तर, दक्षिण इति तेषां तत्र केवलं दिक् अर्थे इति नास्ति, अपि तत्र तेषां देशार्थे अपि भवति, अपि तत्र कालार्थे, नाम तत्र तत्र युधिष्ठिरः अर्जुनात् पूर्वः इति तादृश, अतः कालार्थे अपि भवन्ति पूर्वं, पश्चिम, उत्तर, दक्षिण इति पदानि। अतः तत्र किमस्ति, किञ्चित् तत्र यदि पूर्व, पश्चिम, उत्तर, दक्षिण इति पदानां तत्र प्रयोगः यदि धिक् अर्थे भवति, तदा तत्र पूर्व, पश्चिम, उत्तर, दक्षिण इत्येषां पदानां नित्यस्त्रीत्वं भवति, यतोहि धिक् इति स्त्रीलिङ्गपदम् अस्ति। किन्तु यदा देशार्थे, कालार्थे इति तत्र पूर्व, पश्चिम, उत्तर, दक्षिण इति तेषाम् उपयोगः, प्रयोगः भवति, तदा तत्र विशेषनिज्ञत्वं नाम तत्र विशेषणरूपेण तत्र त्रिषु लिङ्गेषु तेषां प्रयोगः भवति। अपि तत्र वयं तत्र पूर्वस्य तत्र सर्वदा तत्र कस्यां दिशि इति एव तत्र प्रयोगः भवति, दिक् दिक् इति शब्दस्य नाम कस्यां दिशि गृहम् अस्ति अथवा मन्दिरम् अस्ति इति भवति। तथैव तत्र पूर्व, उत्तर, दक्षिण इति तेषामपि तत्र पूर्वस्याम्, उत्तरस्यां, दक्षिणस्याम् इति भवति प्रयोगः, केवलं पश्चिम इति तत्र पश्चिमायाम् इति भवति। अपि तत्र अपि प्राची, प्रतीचि, उदीचि, अपाचि तेषां तु तत्र सप्तमे तत्र प्राच्यां, प्रतीच्याम्, उदीच्याम्, अपाच्याम् इति एव भवति। अतः तत्र केवलं तत्र एषः अंशः वक्तव्यः आसीत् तत्र दिक् इति विषये, तावदेव। अतः तत्र अग्रे सरामः। तर्हि तत्र के के आगतवन्तः, तत्र पद्माभगिनी नमस्कारः।
नमस्ते जि।
नमस्कारः भगिनी। जयलक्ष्मी भगिनी नमस्कारः।
नमस्ते महोदय।
नमस्कारः भगिनी। धनश्री भगिनी नमस्कारः।
नमस्ते महोदय।
नमस्कारः भगिनी। मूर्ति महोदय नमस्कारः।
आचार्य नमस्कारः। सुप्रभातं।
नमस्कार। सुप्रभातं। सुप्रभातं। मृणालिनी भगिनी नमस्कारः। अस्तु, तर्हि तत्र आरम्भं कुर्मः। इदानीं तत्र अद्यतनविषयः अस्ति तत्र आत्मा इति। तर्हि तत्र नीता भगिनी आरम्भं करोति वा?
ज्ञानवान् इति अनुक्त्वा ज्ञानाधिकरणम् इति कुतः उक्तम्? उद्देशक्रमानुसारम् आत्मानं निरूपयति। ज्ञानाधिकरणम् आत्मा, सः द्विविधः, जीवात्मा परमात्मा चेति। तत्र ईश्वरः सर्वज्ञः परमात्मा एक एव जीवः तु प्रतिशरीरं भिन्नः विभुः नित्यः च इति अग्रिमे पठामि
अग्रे अपि तत्र प्रथमवाक्यमपि पठतु भगिनि
इह ज्ञानवान् आत्मा इति एव वक्तव्ये ज्ञानाधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय
अग्रिममपि अग्रिममपि
ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते
हा इति तावत्पर्यन्तं हा तर्हि किञ्चित् वदतु भगिनि
प्रयत्नं करोमि ज्ञानवान् इति अनुक्त्वा ज्ञान अधिकरणम् इति कुतः उक्तम् अत्र वानवान् इति चिन्तयामः चेत् तत् मतु प्रत्यय ज्ञानवान् इति ज्ञानवान् इति वयं न वदामः ज्ञान अधिकरणं तत्र अधिकरणस्य उपयोगं कुर्मः चेत् सप्तम्यां सप्तमी विषये अधिकरणम् इति कुतः उक्तम् ज्ञान अधिकरणम् इति कुतः उक्तम् कुतः इत्युक्ते अत्र कस्मात् कारणात् उक्तम्
इति प्रश्नः इति प्रश्नस्य उद्घाटनम् इति प्रश्नः अस्तु
तत्र मतुक् प्रत्ययस्य योजना न भवति ज्ञानवान् इति वयं न वदामः ज्ञान अधिकरणं ज्ञानाधिकरणम् इति कस्मात् कारणात् वयं वदामः तत् प्रश्नमस्ति प्रश्नः अस्ति तत् उद्देश्यक्रमानुसारम् आत्मानं निरूपयति तत् उद्देश्य इत्युक्ते तस्य हेतु
उद्देश्य इत्युक्ते तत्र यथा अस्माकं न्यायशास्त्रे अस्ति खलु तत्र भागत्रयम् उद्देशभागः लक्षणभागः तदनन्तरं तत्र परीक्षा उद्देशग्रन्थे केवलं नामकरणं तत्र यः क्रमः आसीत् सः एव क्रमः अत्रापि तत्र तमेव क्रमं वयम् अनुसरामः अत्र अतः तत्र तस्य क्रमानुसारम् इदानीं तत्र धिक् इति अनन्तरं तस्य अनन्तरं भवति आत्मा इति
यत् न्यायशास्त्रे क्रमः दत्तः अस्ति तेन अनुसारेण काल दिक् अनन्तरम् आत्मा
यतोहि तत्र प्रथमपुटे किम् आसीत् तत्र पृथ्वी जलं तेजः वायुः आकाशः कालः तदनन्तरं दिक् आत्मा तदनन्तरं मनः अतः तत्र एतावत् तत्र आकाशः कालः दिक् इति तेषां तत्र निरूपणं लक्षणवाक्यं वयं परिशीलितवन्तः वाक्यानि परिशीलितवन्तः इदानीं तत्र आत्मनः लक्षणवाक्यं
द्रव्यविषये क्रम अनुसारेण तत्र अत्र ज्ञानविषये अस्ति आत्माविषये दत्तमस्ति
आत्मनः विषयः
आत्मनः विषयः दत्तमस्ति दत्तः अस्ति ज्ञानाधिकरणम् आत्मा ज्ञानाधिकरणम् आत्मा इति
लक्षणवाक्यम्
अत्र लक्षणवाक्यं दत्तमस्ति ज्ञानाधिकरणम् आत्मा
तत्र साधारणतया लक्षणवाक्यं कथं भवति तत्र पृथिव्याः लक्षणवाक्यं किम् अस्ति
अत्र
गन्ध न पृथिव्याः लक्षणं गन्धवती पृथिवी अथवा यदि वयं साक्षात् तत्र वत्वम् इति तादृशप्रयोगं कर्तुम् इच्छामः तत्र किं भवति गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः खलु गन्धवती पृथिवी इति अथवा गन्धवत्वं नाम तत्र गन्धवत्वं पृथिव्याम् अस्ति इति तत्र सम्यक् रूपेण तत्र भवति इति कृत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः किन्तु तादृश तत्र गन्धवती पृथिवी इति अत्र भवति चेत् ज्ञानवान् आत्मा इति वाक्यं भवेत् किन्तु तद् न उक्तं खलु लक्षणवाक्यं किमस्ति आत्मा अस्ति ज्ञानस्य अधिकरणम् तत्र नाम एतादृशलक्षणवाक्ये लक्षणवाक्यम् अस्ति चेत् तत्र लक्षणं कुत्र भवेत्, लक्षणम् इति तत्र विशेषगुणः, गुणः नाम लौकिक अर्थे तत्र किमपि विशिष्टम् अस्ति तद् कुत्र भवेत्, लक्ष्ये एव भवेत्, लक्ष्ये सर्वत्र भवेत् खलु. लक्षणम् इति यत् स्वीकुर्मः तत्र नाम गन्धः, यत्र यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति, अपि पृथ्वी विजातीयपदार्थेषु गन्धः नास्ति खलु. तत्र अतः अत्र किमस्ति, आत्मनि ज्ञानमस्ति नाम ज्ञानम् अत्र एतद् लक्षणवाक्यमस्ति चेत् ज्ञानम् अन्यत्र कुत्रापि न भवति खलु. इति तत्र नाम तत्र ज्ञानं केवलम् आत्मनि अस्ति, आत्मा अधिकरणमस्ति ज्ञानस्य. अतः यदि ज्ञानम् आत्मनः लक्षणं भवेत् तर्हि तत्र ज्ञानम् आत्मनि अस्ति, किन्तु आत्मनि विहाय आत्मानं विहाय अन्यत्र कुत्र अपि नास्ति इति. अस्तु अग्रे, एतस्य विवरणम् अग्रे भवति. अतः तत्र
यथा वयं वदामः आकाश शब्दगुणकम् आकाश,
समीचीनं भगिनि, तथैव तथैव अत्रापि अस्ति समीचीनं.
अतीतादिव्यवहारहेतुः कालः तथैव अत्र दिक् विषये अपि तत्र अधिकरणं ज्ञान आत्मनि ज्ञानस्य अधिकरणम् अस्ति इति. सः सः द्विविधः, अत्र सः इत्युक्ते आत्मा, सः द्विविधः, तत्र तस्मिन् आत्मनि द्वैविध्यम् अस्ति इति दत्तमस्ति. जीवात्मा परमात्मा चेति, तत्र जीवात्मा परमात्मा तेन प्रकारेण द्वैविध्यं वर्तते. तत्र ईश्वरः सर्वज्ञः, परमात्मा एक एव. तत्र सर्वेषु स्थलेषु ईश्वरस्य अस्तित्वमस्ति इति चिन्तयामः चेत् तत्र परमात्मा एक एव अस्ति. परमात्मा एक एव, एक एव परमात्मा सर्वेषु जीवेषु वा इति वक्तुं शक्नुमः, सर्वेषु जीवेषु एकः एव परमात्मा.
न, तत्र परमात्मा एकः एव, सः एकः एव, सः सर्वज्ञः अपि सः ईश्वरः नाम सर्वस्य अधिपतिः इति. ईश्वरः
सर्वस्य अधिपतिः, सर्वज्ञः,
सर्वज्ञः अपि सर्वज्ञः.
आचार्य यत् सर्वं ज्ञायते तत् सर्वज्ञ एव
इति सत्यं. तत्र नाम ज्ञानं सर्वस्य ज्ञानं तस्मिन्नेव अस्ति,
तस्मिन्नेव सर्वस्य ज्ञानं भवति.
अतः तत्र परमात्मा सः एव, अतः एकः एव परमात्मा. तस्य तत्र यदा ईश्वरः इति वदामः अथवा सर्वज्ञः इति वदामः केवलं तत्र परमात्मानमेव सूचयति इति.
जीवः तु प्रतिशरीरं भिन्नः, जीवः तु प्रतिशरीरं भिन्नः.
तत्र जीवः नाम जीवात्मा.
जीवः तु प्रतिशरीरं जीवात्मा भिन्नः अस्ति. विभुः नित्यः च, अत्र विभु विभुद्रव्यस्य विषये, विभु तत्र विभुत्व
विभुद्रव्यम् इत्युक्ते किमस्ति, विभुद्रव्यम् इत्युक्ते यस्मिन् क्रिया भवितुम् अर्हति, क्रियायाः आश्रयः एव विभुद्रव्यं. वयं तत्र मूर्तद्रव्यं विभुद्रव्यम् इति, हा क्षम्यतां क्षम्यतां, विभुद्रव्यम् इत्युक्ते तत्र मूर्तद्रव्यं यत्र क्रियायाः क्रिया भवितुम् अर्हति. क्षम्यतां, हा दोषी
तत्र क्रिया न भवति एवं,
हा इति विभु, विभु इत्युक्ते तस्य विपरीतं, हा
नाम परमं परिमाणम् इति तत्.
हा सत्यं समीचीनं भगिनि, हा उत्तमं, हा
तत्र क्रिया न भवति इति
न भवति. विभुद्रव्यं
भिन्नः अस्ति, विभुः नित्यः च, विभुत्वं विषये दत्तमस्ति तत् नित्यमस्ति. तत्र यत्र यत्र न क्रिया तत्र विभुत्वं नित्यमस्ति इति.
समीचीनम्, अस्तु अग्रे अपि तत्र
इह ज्ञानवान् आत्मा इति एव वक्तव्ये ज्ञानाधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय अत्र ज्ञानवान् आत्मा यदि अस्माकं प्रश्नः कः अस्ति ज्ञानवान् इति न दत्तमस्ति ज्ञानाधिकरणम् इति कस्मात् कारणम् उक्तमस्ति इह ज्ञानवान् आत्मा इति एव वक्तव्ये ज्ञानाधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय सम्बन्धविशेषसूचनाय अत्र चतुर्थी अस्ति तत् सम्बन्धविशेषसूचनार्थं
नाम कोऽपि विशेषसम्बन्धः भवेत् यतः तत्र शब्दगुणकम् आकाशम् इति नाम तत्र शब्दः इति आकाशे अस्ति किन्तु शब्दः गुणः अस्ति समवायसम्बन्धेन आकाशे तिष्ठति इति अस्ति खलु तथैव अत्रापि तत्र सम्बन्ध कोऽपि विशेषसम्बन्धस्य सूचनार्थम् एतादृशी शैली स्वीकृता इति अस्ति
ज्ञानाधिकरणम् आत्मा इति वक्तव्ये तत् सम्बन्धविशेषसूचनार्थं तत् तेन प्रकारेण दत्तमस्ति
हा यदि केवलं ज्ञानवान् आत्मा इति अस्ति इति वदामश्चेत् तत्र ज्ञानवान् आत्मा तत्र ज्ञानम् आत्मनि अस्ति इति एव भवति किन्तु ज्ञानस्य अधिकरणम् आत्मा इति वदामश्चेत् किमर्थम् इति प्रश्नः तत्र सम्बन्ध कोऽपि विशेषसम्बन्धः अस्ति इति सूचनार्थम् एतादृशी शैली अस्ति अत्र अपि तत्र किमर्थम् इति अपि अग्रे धीयते अग्रिमवाक्यमपि पठ्यतु इदानीं तत्र विवरणं नास्ति अग्रे भवति किन्तु अग्रिमवाक्यमपि पठित्वा किञ्चित् विवृणोतु
ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते ग्रहणदार्ढ्याय अत्रापि
ग्रहणं नाम अस्माकम् अवगमनं दृढं भवतु इति धार्ढ्यम् इति दृढ इति पदस्य भावः धार्ढ्यं दृढम् इति अस्माकं ग्रहणम् अवगमनं तस्य तत् दृढं भवतु इति कृत्वा पुनः अपि तत्र किमर्थम् एतादृशी शैली नाम सम्बन्धविशेषः कः इति एतत् सर्वम् अग्रे प्रतिपाद्यते सः अग्रे
अस्माकं मनसि धारणार्थं
तत्र सम्यक्तया स्थापनीयम् अस्ति इति कृत्वा तत्र एतादृशी शैली अस्ति अपि तत्र क्षम्यताम् एतादृशी तत्र सम्यक्रीत्या अस्माकं मनसि तिष्ठेत् इति कृत्वा अग्रे तस्य प्रतिपादनं भवति भवति इति अस्तु समीचीनम् अस्तु अग्रे तत्र प्रेमलतभगिनी अग्रे पठति हा धन्यवादः भगिनी हा अस्तु प्रेमलतभगिनी अग्रे पठति वा
महोदय कालनिरूपणे दर्शितरीत्या सर्वेपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपाधौ च वर्तन्ते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते पूर्वं वयं पठितवन्तः सर्वेपि पदार्थाः यः लोके सर्वेपि पदार्थाः सन्ति ते सर्वे अपि काले कालिकसम्बन्धेन महाकाले वर्तन्ते इति पठितवन्तः तत् उपाधौ तत् इत्युक्ते तत् कालस्य उपाधौ अपि महाकाले कालिकसम्बन्धेन वर्तते
उपाधौ इति पदार्थाः महाकाले वर्तन्ते तद् इत्युक्ते यथा भवती उक्तवती महाकालः इति तद् उपाधौ इत्युक्ते महाकालस्य उपाधौ
महाकालस्य उपाधौ
च वर्तन्ते नाम तत्र उपाधिः अपि अधिकरणं भवितुम् अर्हति इति दृष्टवन्तः खलु अतः तत्र सर्वेपि पदार्थाः महाकाले वर्तन्ते, ते तद् उपादौ अपि वर्तन्ते
वर्तन्ते. ज्ञानमपि तादृशमेव, ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते.
अतः तत्र ज्ञानस्य अधिकरणमपि महाकालः भवितुम् अर्हति खलु?
अर्हति,
यतोहि तत्र ज्ञानमपि तत्र महाकालः सर्वेषाम् आधारः, ज्ञानस्य अपि आधारः, अतः ज्ञानं ज्ञानस्य अधिकरणमपि महाकालः भवितुं भवति. कालिक किन्तु सम्बन्धः अस्ति तत्र कालिकसम्बन्धः,
कालिकसम्बन्धे
कालिकसम्बन्धः तत्र अस्ति. अस्तु अग्रे अपि किञ्चित् पठतु भगिनि.
अत्र बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्म धर्म इत्युक्ते पुण्यम्, अधर्म पापम् इति भावनासंस्कारः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः. एतेषां नव पदार्थानाम् अत्र दत्तमस्ति. एतत् बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्न, धर्म अधर्म, भावनासंस्कारः इत्युक्ते यत् किं प्रत्यक्षज्ञानं भवति इन्द्रियैः तदेव नाम.
न न न तत्र केवलं तत्र नव गुणानां तत्र आवलिः दत्ता, किन्तु इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः 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 इति इत्युक्ते नाम तत्र किम् इति अग्रे दत्तमस्ति. विशेषगुणः इत्युक्ते अग्रिमवाक्यं पठतु.
विशेषगुणः द्रव्यमात्रवृत्तिः भवति. विशेषगुणः इत्युक्ते द्रव्यमात्रवृत्तिः भवति, यथा उष्णस्पर्शः, तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः, तथा बुद्ध्यादयः आत्मनः गुणाः इति. विशेषगुण इत्युक्ते किम् इति अत्र विवरणं दत्तमस्ति. यथा तेजसः विशेषगुणः उष्णस्पर्शः अस्ति, गन्धस्य पृथिव्यां विशेषगुणः अस्ति. अतः एतत् पूर्वमेव तत् नव बुद्ध्यादयः नव आत्मनगुणः इति.
हा किन्तु तत्र विशेषगुणः इत्युक्ते तद् द्रव्यमात्रवृत्तिः. तद् द्रव्यमात्र इत्युक्ते नाम उष्णस्पर्शः, तेजसः विशेषगुणः इति उक्तं, नाम तत्र उष्णस्पर्शः तेजसी अस्ति खलु,
उष्णस्पर्श.
अतः तत्र तद् द्रव्यमात्र नाम केवलं तस्मिन् द्रव्ये अस्ति, अन्यत्र नास्ति. तर्हि तत्र आत्मनः विशेषगुणः इत्युक्ते केवलम्
आत्मनि
अस्ति, अन्यत्र न भवितुम् अर्हति, न भवति एव. अतः तत्र यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः अपि पृथिव्याः विशेषगुणः, तथा एव बुद्ध्यादयः नव आत्मनः
गुणाः
विशेषगुणाः
विशेषगुणाः.
नाम ते एव तत्र गुणाः सन्ति, तत्र आत्मनः केवलम् आत्मनि ते भवन्ति. अतः बुद्धि, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः,
धर्म
इत्युक्ते पुण्यम्, अधर्म
इत्युक्ते पापं,
भावनाख्यसंस्कारः कः इति अग्रे द्रक्ष्यामः. अपि अत्र बुद्धिः नाम ज्ञानम्, अतः एव तत्र ज्ञानम् इति, तत्र ज्ञानाधिकरणम् आत्मा. तर्हि तत्र बुद्धि नाम ज्ञानम् इति अस्ति. हा इति समीचीनं भगिनि. हा अस्तु धनश्री भगिनी प्रश्नः.
धन्यवादः महोदय.
धन्यवादः भगिनि.
आम् लक्षण अनन्तरं विशेषगुणः नयोर्मध्ये कः भेदः?
हा तत्र अत्र यद्दत्तमस्ति केवलं तद्द्रव्यमात्रवृत्तिः इति अस्ति. लक्षणम् इति अपि स्वीकर्तुं शक्नुमः भगिनि, किन्तु तत्र लक्षणं सर्वदा गुणः न भवति खलु?
गुण एव
न न न नाम तत्र यदा तत्र न्यायशास्त्रे गुणः इति भवति सः एव तत्र लक्षणरूपेण न स्वीकुर्मः खलु?
भिन्नः कुत्र
हेतुः 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 इति आसीत् खलु, अतितत्त्वादिव्यवहारहेतुः, तत्र गुणः नास्ति खलु तत्? अतः तत्र लक्षणम् इति स्वीकर्तुं शक्नुमः, किन्तु गुणरूपपदार्थः अस्ति तावदेव, यतोहि तत्र तद्द्रव्यमात्रवृत्तिः इति अस्ति. अतः तत्र समीचीनं समीचीनप्रश्नः, तादृशमेव अस्ति, किन्तु गुणः इति तत्र तस्य महत्त्वम् अस्ति. अस्तु समीचीनम्. अन्य कोऽपि प्रश्नः? अतः तत्र एतावत् किमस्ति, तत्र नवगुणाः सन्ति आत्मनि, ज्ञानमपि गुणः अस्ति, आत्मनि अस्ति, आत्मनः गुणः अस्ति ज्ञानं, बुद्धिः नाम ज्ञानम्. अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आम् महोदय. तथा यथा उष्णस्पर्शः तेजसः अभवत् खलु महोदय,
पुनः एकवारं वदतु.
यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः, उष्णस्पर्शः इति गुणः तेजसि एव अस्ति, तत्कारणात् तेजसः विशेषगुणः उष्णस्पर्शः, गन्धः इति विशेषगुणः पृथिव्याम् अस्ति.
अपि तत्र तद्द्रव्यमात्रवृत्तिः इति तत्र किञ्चित् वदतु तस्मिन् विषये.
तत् द्रव्यमात्रवृत्तिः इति विशेषगुणः इति भवति, द्रव्यमात्र वृत्तिः तत् द्रव्ये एव अस्ति इति, तत् द्रव्ये एव अस्ति इति.
समीचीनं समीचीनं, नाम तत् द्रव्य केवलं तस्मिन् द्रव्ये मात्र, तद् द्रव्य नाम तद् केव तत्र यत् द्रव्यस्य यस्य द्रव्यस्य विषयः केवलं तस्य तस्मिन् द्रव्ये मात्र, केवलं तस्मिन् द्रव्ये वृत्तिः इत्युक्ते नाम विशेषगुणस्य आदेयः, विशेषगुणः आदेयः भवति, अधिकरणं द्रव्यं भवति,
द्रव्यं भवति
भवति. अतः केवलं तस्मिन् द्रव्ये अस्ति इति कथं वदामः? केवलं तत्र तद् द्रव्यमात्र निरूपित तत्र द्रव्ये विद्यमान अधिकरणता निरूपित
आदेयता विशेषगुणः
विशेषगुणे अस्ति.
गन्धवत्वं पृथिव्याः लक्षणम् इत्यनेन
तादृशं तत्र यथा तत्र गन्धे या आदेयता अस्ति
अस्ति
तत्र निरूपित अधिकरणता पृथिव्याम्
पृथिव्याम् अस्ति.
तत्र वृत्तिः नाम आदेयता वर्तते,
वृत्तिः नाम
तद् वर्तते आदेयता, आदेयतां सूचयति. अत्र विशेषगुणः तद्द्रव्यमात्रवृत्तिः केवलं तत्र भवति इति. समीचीनम्. अस्तु अग्रे.
तथा बुद्ध्यादयः नव आत्मनः गुणाः, बुद्धि सुखं दुःखम् इच्छा द्वेषः प्रयत्नः, पुण्यं पापं भावनाक्यसंस्कारः इति नवगुणाः आत्मनः विशेषगुणाः इति दत्तम्. आत्मनि एव अस्ति इति नवगुणाः आदेयताः भवति, तत् आदेयता निरूपकम् अधिकरणम् आत्मा इति भवति.
नाम तत्र एतेषां सर्वेषां गुणानाम् अधिकरणं तत्र आत्मा एव.
तेषु अन्तिमाः त्रयः न मनसा गृह्यन्ते. अन्तिमाः त्रयः अत्र पुण्यं पापं भावनाख्यसंस्कारः मनसा न गृह्यन्ते.
तत्र मनसा इत्युक्ते तत्र साक्षात् गुणमस्ति धर्मः अधर्मः संस्कारः संस्कारः इति. तत्र धर्मः अपि पुण्यम् अधर्मः पापं तत्र तत्र भवति, किन्तु धर्मः अधर्मः इति एव चिन्तयामः तर्हि तत्र
धर्मः अधर्मः भावनाख्यसंस्कारः मनसा न गृह्यन्ते.
मनसा न गृह्यन्ते नाम धर्मः अस्ति न वा इति वयं तत्र मनसा न ज्ञातुं शक्नुमः.
सुखं दुःखम् इच्छा द्वेषः मनसा न गृह्यन्ते. प्रयत्नः अपि गृह्यन्ते. बुद्धिः अपि गृह्यन्ते. आं
महोदय,
धर्मः अधर्मः ज्ञानेन परम्
संस्कारः कः इति भावनाख्यसंस्कारः
करः
सः कः इति अग्रे पठामः. सः अपि तत्र मनसा न गृह्यते. अतः यदि तत्र एते सर्वे तत्र आत्मनः गुणाः सन्ति तत्र इन्द्रियैः नाम बहिरिन्द्रियैः तेषां ग्रहणं भवति वा?
न महोदय,
न.
सुखं सुखं दुःखम् इच्छा
बहिरिन्द्रियैः भवति वा? नाम
मनसा
मनसा
एव
सुखं दुःखं न, केवलं तत्र धर्मः अधर्मः भावनाख्यसंस्कारः त्रयः मनसा अपि न गृह्यन्ते अपि बहिरिन्द्रियैः अपि
अपि न गृह्यन्ते.
अतः ते अग्रिमवाक्ये
अतः ते अतीन्द्रियाः
नाम इन्द्रियैः तेषां ग्रहणं
न भवति तथापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः. तथापि वक्ष्यमाणप्रकारेण
नाम यदि तत्र अतीन्द्रियाः सन्ति तर्हि ते तत्र ते सन्ति न वा इति कथं जानीमः खलु? यतोहि तत्र अतीन्द्रियाः सन्ति अतः तत्र ते किमर्थं तत्र तेषां प्रमाणं किम् इति अतः तत्र अग्रे पश्यामः. तत्र व्यापाररूपत्वेन कल्पिताः ते सन्ति इति कथं जानीमः? व्यापाररूपेण ते सन्ति इति अग्रे ज्ञास्यामः. अतः तत्र सर्वे अपि तत्र नवगुणाः अपि आत्मनः विशेषगुणाः भवन्ति.
अतः सर्वे आत्मनः विशेषगुणाः भवन्ति
नाम तत्र ते सन्ति नवगुणाः अपि आत्मनि सन्ति इति अस्ति. अस्तु, एतावत्. अतः तत्र नूतन तत्र पदद्वयमस्ति इति अतः तत्र तयोः पदयोः इदानीं तत्र विवरणं भवति. नाम एकः अस्ति तत्र व्यापारः इत्युक्ते किम् इति, यतोहि नूतनपदमस्ति व्यापारः. अपि तत्र अन्यपदमस्ति तत्र बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, एतत् सर्वं जानीमः. किन्तु संस्कारः इत्युक्ते कः इति, अथवा भावनाख्य भावना इति अतः तत्र एतयोः पदयोः इदानीम् अग्रे विवरणं करपत्ररूपेण भवति. अस्तु, तर्हि तत्र करपत्रं मया प्रेषितमस्ति. अतः तत् करपत्रमपि इदानीं पार्श्वे भवेत्. अस्तु, समीचीनं भगिनि, धन्यवादः भगिनि.
धन्यवादः
भगिनि. अस्तु, अग्रे तर्हि नमस्कारः भगिनि. तर्हि अग्रे तत्र करपत्रं पठामः. तर्हि तत्र शोभा भगिनी आरम्भं करोति वा? तत्र करपत्रं भवत्याः?
अस्ति अस्ति
अस्ति अस्तु सर्वम् अस्तु समीचीनं.
तर्हि तत्र शीर्षिका अस्ति व्यापारः संस्कारः च इति. तयोः तत्र व्यापारः इति प्रथमं स्वीकुर्मः. व्यापारः लोके माध्यमम् इति वदामः. कारणस्य कार्यस्य च मध्ये अयं व्यापारः मध्यमरूपेण कार्यं करोति. माध्यमरूपेण कार्यं करोति. एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते. कारणेन साक्षात् एव कार्यं न जायते. मध्ये कश्चन व्यापारः भवति. तत्र प्रथमं पठित्वा वदामि वा? अस्तु. यथा अग्रे पठित्वा वदामि महोदय. यथा कुठारः इत्युक्ते परशुः इति काष्ठं. कुठारः परशुः अपि काष्ठं. केवलं कुठारः अस्ति चेत् काष्ठं भेत्तुं शक्नुमः वा? नैव. तदर्थं किं कुर्मः? हस्तेन कुठारम् उन्नीय काष्ठस्य उपरि त्यजामः. तदा किं भवति? काष्ठं द्विधा विभक्तं भवति. तर्हि काष्ठविभजनं प्रति कुठारः कारणं. व्यापारः कः इत्युक्ते उन्नयन निपातन आदिक्रियाः. क्रिया अपेक्षिता अस्ति, अतः मध्ये कश्चन व्यापारः भवति. अत्र क्रिया एव व्यापारः इति.
इत्युक्ते
तत्र व्यापारः इति किम् इति तत्र निर्देशनं कृतं, तस्य निर्देशनं कृतं. लोके तु माध्यमम् इति वदामः. व्यापारः इत्युक्ते माध्यमम् इति. तत्र अत्र तु कारणस्य न तत्र लोके एव इदानीमपि कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति. इत्युक्ते तत्र एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते. कारणेन साक्षात् एव कार्यं न जायते. मध्ये कश्चन व्यापारः भवति. इत्युक्ते किमपि तत्र कार्यं भवति चेत् तस्य फलं भवति, कार्यस्य कारणं भवति. तत्र यथा फलस्य उत्पत्तौ, यत् फलस्य उत्पत्तिः अपेक्षितं, तदा कारणमपि अपेक्षते तत्र. किन्तु कारणेन एव कार्यं न जायते. मध्ये कश्चन व्यापारः भवति. इत्युक्ते इदानीं पर्यन्तं तत्र फलं किमपि, कस्यापि फलम् अपेक्षितं, तस्य फलस्य किमपि कारणं भवति. किन्तु कारणेन एव तत्र कार्यं न जायते. इत्युक्ते तत्र फलं, कार्यमिति फलमिति अपि स्वीकर्तुं शक्नुमः. कारणेन एव कार्यं न जायते. मध्ये कश्चन व्यापारः भवति इति. अतः अग्रे तत्र उदाहरणेन कुठारः इत्युक्ते परशुः इति, अपि च काष्ठम् इति स्वीकृतं. केवलं कुठारम् अस्ति चेत् काष्ठं भेत्तुं न शक्नुमः. तत्र कुठारः अस्ति, काष्ठमपि अस्ति, किन्तु तत्र छेदनं भवनीयं चेत् केवलं तत्र कुठारः कारणरूपेण तिष्ठति चेत् फलं न प्राप्नुमः. तदर्थं किं कुर्मः इत्युक्ते हस्तेन कुठारम् उन्नीय काष्ठस्य उपरि त्यजामः. तदा किं भवति इत्युक्ते काष्ठं द्विधा विभक्तं भवति. इदानीं फलं प्राप्तं. तर्हि काष्ठविभजनं प्रति कुठारः कारणं भवति, कारणम् अस्ति. तत्र व्यापारः कः इति चेत् उन्नयन निपातन आदिक्रियाः एव व्यापाराः भवन्ति. तत्र परशुम् अथवा कुठारम् उन्नयनीयं भवति. उन्नीत्वा तत्र काष्ठस्य उपरि निपातनम् अपि करणीयं भवति. इत्यादि क्रियाः भवन्ति तत्र. ताः क्रियाः अपेक्षिताः सन्ति. तत्र क्रिया अपेक्षिता अस्ति. अतः मध्ये कश्चन व्यापारः भवति. अस्मिन् प्रसङ्गे, अस्मिन् उदाहरणे किम् इत्युक्ते तत्र क्रिया किमपि कापि क्रिया भवेत्,
तदेव साक्षात् क्रिया अत्र व्यापारः अस्ति उन्नयन निपातन इत्यादि क्रियाः एव साक्षात् क्रिया साक्षात् व्यापारः तत्र कार्यं किं कारणं किम् अत्र
तत्र कार्यं काश् तत्र कुठारः इति कारणं काष्ठस्य छेदनं कार्यं
कार्यं समीचीनं
यतोहि तदेव तेन फलं
तदेव
भवति
फलम् अतः कुटारः कारणं काष्ठविभजनं
कारणं
काष्ठविभजनमेव
फलं अपि च
अपि मध्ये
उन्नयनम् अपि निपातनम् इति क्रिया
इत्यादि
व्यापारः
इत्यादिक्रियाः
व्यापारः
अतः तत्र कारणमस्ति कार्यमस्ति तयोः मध्ये तत्र व्यापारः अत्र क्रिया एव व्यापारः क्रिया एव व्यापारः इति अस्ति अस्तु समीचीनं अस्तु अग्रे तत्र समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र सीतालक्ष्मी भगिनी अग्रे अग्रे पठति वा
आं महोदय अन्यत् उदाहरणं स्वीकुर्मः घटनिर्माणं दण्डेन घटो जायते इत्युच्यते पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत् दण्डः घटं प्रति कारणं दण्डसत्त्वे घटसत्त्वं दण्डाभावे घटाभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते अग्रेपि पठामि वा साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत् दण्डेन चक्रभ्रमणं क्रियते चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये तेन घटोत्पत्तिः जायते तथा च चक्रभ्रमणं व्यापारः कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं दण्डजन्यघटजनकं च कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं दण्डजन्यघटजनकं च अत्र द्वितीय उदाहरणं स्वीकृतम् अस्ति घटनिर्माणं घटनिर्माणसमये दण्डेन घटः जायते अस्तु पुरातनकाले घटस्य निर्माणम् एवं भवति इति एव अतः पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत् इति अद्यतनदिने तु भिन्नरूपेण विद्युत् उपयुज्य सर्वं ते कुर्वन्ति इति एव दण्डः घटं प्रति कारणम् इति वदामः घटनिर्माणसमये दण्डस्य दण्डः एव कारणं घटनिर्माणं यदस्ति तद् कार्यं भवति इति
घटमेव साक्षात् कार्यं दण्डः कारणं नाम दण्डः एव तत्र दण्डः घटं प्रति
कारणं
तत्र अन्यानि कारणानि अपि भवन्ति किन्तु दण्डः तु तेषु एकं कारणम् अस्ति
दण्डसत्त्वे घटसत्त्वं दण्डाभावे घटाभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते दण्डः अस्ति चेत् कार्यं घटः भवति भविष्यति दण्डः नास्ति अभावः दण्डस्य अभावः अस्ति चेत् घटस्य अपि अभावः तस्य अपि निर्माणं न भवति इति कारणेन तस्य अपि अभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते इति द्वयोः मध्ये कारण एकः कार्यम् अस्ति अनन्तरम् एकं कारणम् अस्ति इति द्वयोः मध्ये कार्यकारणभावः भवति इति
नाम तत्र यदि तत्र वयं वक्तुम् इच्छामः तत्र एतत् कार्यमस्ति एतस्य कार्यं यत् कार्यमस्ति तत् कार्यं प्रति एतत् कारणम् इति वक्तुम् इच्छामः तदा किं तत्र प्रदर्शनीयमस्ति यत्र कारणमस्ति तत्र यत्र कारणमस्ति तत्र कार्यं भवति यत्र कारणं नास्ति तत्र कार्यं न भवति इति प्रदर्शयामः तदा वयम् अवगच्छामः अस्तु तत्र एतत् कारणं भवितुम् अर्हति नाम दण्डः अस्ति चेत् घटः भवितुम् अर्हति किन्तु दण्डः नास्ति चेत् घटः नास्ति इति अवगच्छामश्चे चेत् तत्र अस्तु तयोः मध्ये एतादृशकार्यकारणभावः भवति खलु तत्र निश्चीयते
अग्रे साक्षात् एव दण्डेन घटः उत्पद्यते वा इति प्रश्नः इति चेत् दण्डेन चक्रभ्रमणं क्रियते चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये तेन घटोत्पत्तिः जायते अतः यदि दण्डः कारणम् अस्ति चेत् तेन साक्षात् घटस्य उत्पादनं भवति वा इति प्रश्नः कुर्मः चेत् न उत्तरमस्ति न दण्डेन चक्रं यदस्ति तस्य भ्रमणक्रियां कुर्मः भ्रमणक्रिया जन्यते चक्रभ्रमणेन अन्यकार्याणि कार्यान्तराणि तदनन्तरं अन्यकार्याणि भवन्ति तेन एव घटस्य उत्पत्तिः भवति इति एव
तर्हि तत्र दण्डः कारणमस्ति घटः कार्यमस्ति मध्ये तत्र व्यापारः अस्ति व्यापारः कः तत्र चक्रभ्रमणं व्यापारः इति भवति नाम तत्र चक्रभ्रमणेन विना तत्र घटस्य उत्पादनं न भवति खलु अतः अपि केवलं चक्रभ्रमणेन न अन्यानि कार्याणि अपि सन्ति किन्तु मध्ये चक्रभ्रमणम् इति स्वीकुर्मः तत् तदस्ति एकः व्यापारः अस्ति अतः तत्र चक्रभ्रमणम् अत्र व्यापारः इति अस्ति अस्तु तत्र कथम् इति चेत् तत्र अन्तिमभाग अन्तिमवाक्यं पुनः पठतु भगिनि
कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं दण्डजन्यघटजनकं च दण्डजन्यं चक्रभ्रमणं दण्डेन एव चक्रभ्रमणं भवति इति कारणे दण्डजन्यं चक्रभ्रमणं यच्चक्रभ्रमणं भवति तद् दण्डजन्यम् अस्ति इति दण्डजन्यं चक्रभ्रमणं
नाम तत्र दण्डः चक्रभ्रमणं प्रति अपि कारणमस्ति खलु नाम दण्डेन विना चक्रभ्रमणं न कर्तुं शक्नुमः अतः दण्डजन्यं चक्रभ्रमणम् अथवा विपरीततया चक्रभ्रमणजनकं जनकः कः अस्ति चक्रभ्रमणजनकः कः अस्ति
दण्डः
अग्रे
दण्डजन्यघटजनकं च दण्डजन्यघटजनकं च दण्डजन्य यदस्ति दण्डजन्यघटजनकं च
तत्र यदि एतत् कुर्मः तत्र अवगन्तुं शक्नुमः एतावत् तत्र घटः कीदृशः
अस्तु घटः दण्डजन्यम् अस्ति घटः दण्डजन्यः अस्ति
दण्डजन्यः अस्ति खलु घटः अपि दण्डजन्यः अस्ति नाम घटं प्रति अपि दण्डः कारणम् अस्ति अपि एषः घटः यत् दण्डजन्यः अस्ति तं प्रति चक्रभ्रमणं किमस्ति जनयति अतः तत्र चक्रभ्रमणं घटं जनयति इति कृत्वा चक्रभ्रमणं घटजनकम् अस्ति किन्तु तत्र दण्डः अपि तत्र घटं जनयति किन्तु तत्र परम्परारूपेण कारणमस्ति नाम तत्र दण्डः साक्षात् घटं प्रति कारणं नास्ति दण्डः व्यापारं जनयति व्यापारः पुनः घटं कार्यं जनयति अतः तत्र व्यापारः अस्ति कार्यमपि अस्ति अत्र कारणकार्यमपि तत्र तयोः मध्ये अपि कारणकार्यभावः अपि अस्ति अतः तत्र अंशत्रयम् अस्ति
अत्र चक्रभ्रमणम् इति यदस्ति तस्य द्वयं चक्रभ्रमणं कीदृशमस्ति इति पृच्छामः चेत् एकं तु दण्डजन्यम् अस्ति दण्डन दण्ड अनन्तरं द्वितीयं पृच्छामः चक्रभ्रमणं कीदृशम् अस्ति इत्युक्ते जनकम् अस्ति कस्य दण्डजन्यघट यदस्ति तस्य जनकं चक्रभ्रमणम् अस्ति इति चक्रभ्रमणं
समीचीनं तत्र एकम् अस्ति एकं विशेषणमस्ति दण्डजन्यं चक्रभ्रमणं तत्र एतस्य भागः एषः हा अपि तत्र द्वितीयमस्ति घटजनकं तत्र घटजनकम् इति अत्र कार्यकारणभावः अस्ति किन्तु घटः पुनः तत्र घटं प्रति दण्डः अपि कारणम् अस्ति इति कृत्वा दण्डजन्यं घटजनकं च इति अस्ति उत्तमं भगिनि हा भवत्या उत्तमं समीचीनं हा समीचीनम् अस्ति हा अस्तु इदानीम् अग्रे तत्र पद्मा भगिनी अग्रे पठति वा
तत् जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं यथा वायोः लक्षणम् अस्माभिः दृष्टं तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं केवलं रूपरहितत्वं वदामः चेत् अतिव्याप्तिः आकाशादिषु भवति इत्यनेन अतिव्याप्तिः केवलं स्पर्शत्वम् इति वदामः चेत् पुनः अतिव्याप्तिः अतः अत्र दलद्वयं मिलित्वा लक्षणम् इत्यनेन न अतिव्याप्तिः अनेन च दलसार्थक्यं सिद्ध्यति तर्हि व्यापारस्य लक्षणमपि तदा दलद्वयम् अपेक्षते तज्जन्यत्वं तज्जन्यजनकत्वं च तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं तत्र व्यापारः व्यापारस्य लक्षणम् अस्ति तज्जन्यत्वे सति तज्जन्यजनकः एव तत्र लक्षणमस्ति व्यापारस्य तत्र उदाहरणं दत्तं वायोः लक्षणं वयं पूर्वं पठितवन्तः वायोः लक्षणं रूपरहितत्वं स्पर्शवत्वं च इति तत्र वायोः रूपरहितत्वं वायोः लक्षणम् इति तद् मात्रं वयं स्वीकुर्मः चेत् अतिव्याप्तिः भवति यतः आकाशादिषु रूपरहितत्वम् अस्ति अतः अतिव्याप्ति इति दोषः भवति केवलं स्पर्शत्वम् इति वयं स्वीकुर्मः चेत् तत्र अपि अतिव्याप्तिदोषः भवति यतः पृथिव्यादिषु अपि स्पर्शत्वं भवत्येव अतः अतः तत्र वायोः लक्षणं द्वयं मिलित्वा एव वायोः लक्षणं भवति तादृशमेव अत्रापि जन्यत्वे सति तज्जन्यजनकत्वम् अस्ति चेदेव तत्र व्यापारस्य लक्षणं भवति
अतिव्याप्तिदोषः
अतिव्याप्तिदोषः भवति
नाम तत्र अथ तत्र दलद्वयम् अस्ति अस्मिन् लक्षणवाक्ये यथा तत्र वायोः लक्षणवाक्ये अपि तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं तथैव अत्रापि दलद्वयम् अस्ति दलद्वयम् अस्ति तत्र तज्जन्यत्वे सति इति तत्र किञ्चित् वदतु तत्र तज्जन्यत्वे इत्युक्ते तज्जन्यत्वे
तत्र उत्पत्तिसमये
तत् इत्युक्ते तत्र तत् जन्यत्वं तत्र सति सति इत्युक्ते तत्र समये इति नास्ति खलु नाम रूपरहितत्वे सति इत्युक्ते रूपरहितत्वमपि भवेत् तदपि भवेत् स्पर्शवत्वमपि अपि भवेत् अतः तत्र रूपरहितत्वम् अस्ति स्पर्शवत्वमपि अस्ति अतः तत्र अत्र किमस्ति तज्जन्यत्वे
तज्जन्यजनकत्वमपि भवितव्यं
इति अस्ति समीचीनम्. अतः तत्र तज्जन्यत्वे नाम तज्जन्यत्वे तत्र तत् इत्युक्ते किमस्ति
तद्द्रव्यं किमपि
तत्र दण्डजन्यं चक्रभ्रमणं चक्रभ्रमणं पूर्वस्मिन् तत्र किमासीत् तत्र चक्रभ्रमणं कीदृशम् अस्ति
दण्डजन्यं
खलु
दण्डेन एव चक्रभ्रमणं भवति दण्डः जनकः चक्रभ्रमणं जन्यं
अपि पुनः तत्र चक्रभ्रमणं कीदृशं जनकम् अस्ति तस्य
दण्डजन्यघटजनकम्
इत्युक्ते किं दण्डजन्यघटजनकम् इत्युक्ते किमस्ति
चक्रभ्रमणं
चक्रभ्रमणजन्यं
चक्रभ्रमणघटजनकं
चक्रभ्रमणं घटजनकम् अस्ति समीचीनं. घटः कीदृशः अस्ति दण्डजन्यः अस्ति नाम तत्र घटः व्यापारजनकः तत्र घटस्य जनकः व्यापारः अपि अस्ति दण्डः अपि अस्ति. अतः तत्र घटः दण्डजन्यः अपि अस्ति खलु अपि घटस्य जनकः व्यापारः अस्ति यतोहि व्यापारः अपि घटस्य जनकः अस्ति.
व्यापारस्य जन्यः अपि घटः
न व्यापारः जनकः अस्ति घटं प्रति व्यापारस्य
जन्यः घटः वा
न व्यापारस्य जन्यः दण्डः
दण्डः अस्तु.
अतः एव तत्र तज्जन्यं नाम दण्डजन्यम् अत्र चक्रभ्रमणव्यापारः खलु चक्रभ्रमणव्यापारः दण्डजन्यम् अस्ति दण्डेन जन्यं चक्रभ्रमणं दण्डेन जन्यम् अतः तत्र तज्जन्यत्वं नाम दण्डजन्यत्वं कुत्र अस्ति चक्रभ्रमणे
चक्रभ्रमणे
अतः तत्र दण्डजन्यत्वं व्यापारे अस्ति. अपि अन्यत् किम् अस्ति जनकत्वम् अस्ति चक्रभ्रमणे कीदृशजनकत्वम् अस्ति
घट उत्पत्तौ
अतः घटजनकत्वं व्यापारे चक्रभ्रमणे अस्ति खलु. अतः तत्र जनकः जनकः जनकत्वं तज्जन्यजनकत्वं नाम तत्र दण्डजन्यघटजनकत्वं व्यापारे चक्रभ्रमणे अस्ति इति भवति. किन्तु अस्मिन् परिच्छेदे केवलं तत्र धलद्वयम् अस्ति इति उक्तम् अतः तत्र अग्रे तत्र उदाहरणे तत्र कथं घटति इति अग्रे पश्यामः. समीचीनं भगिनि धन्यवादः. अस्तु अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठति वा इदानीं तत्र तत् इति कारणम् इति.
आम् महोदय. तत् इति कारणं तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः तज्जन्यं तृतीया पुरुषः तेन इति दण्डेन जन्यम् इति चक्रभ्रमणं तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति. अनेन एकं विशेषणम् आगतं किन्तु द्वितीयमपि अपेक्षितं तत् जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. अत्र तत् इति पुनः दण्डः जन्यम् इति कार्यं फलम् अत्र घटः. तर्हि तत् इति दण्डः जन्यः इति घटः तेन जन्यः तज्जन्यः तस्य जन्यः क्षम्यता तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणं दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् आहत्य तत् जन्यजनकं चक्रभ्रमणं तत् जन्यजनकत्वं चक्रभ्रमणे. तर्हि अत्र दलसार्थक्यार्थं दलद्वयं पदद्वयेपि तज्जन्यत्वं च तत् जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. अनेन व्यापारस्य लक्षणं बहु किमपि अस्ति महोदय.
अस्तु तत्र शनैः गच्छामः, चिन्ता मास्तु.
अत्र
इदानीं तत्र किमस्ति, तज्जन्यत्वे सति तज्जनकः व्यापारः इति तद् लक्षणवाक्यस्य विवरणं खलु.
तत् जन्यत्वे सति तत् जन्यजनकव्यापारः इति लक्षणवाक्ये तत् इति किम् इति अर्थः निरूप्यते अत्र. तत् इति कारणम् अस्ति. तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकारः. तत् जन्यत्वे इति वदामः चेत् तत् इति कारणमस्ति अस्मिन् उदाहरणे. दण्डः इति एव कारणमस्ति. दण्डेन एव चक्रभ्रमणम् आयाति इति कारणात्
तत्र प्रथमतया तत्र दण्डः अस्ति, कारणमस्ति.
दण्डः कारणमस्ति.
घटः इति कार्यमस्ति. फलम् अस्ति खलु. अतः तत्र एतयोः मध्ये तत्र कार्यकारणभावः अस्ति खलु.
आम्
कार्यं. इदानीं तत्र तत् इत्युक्ते कारणं.
दण्डः इति अस्ति अर्थः. तज्जन्यम् वदामः चेत् तृतीयतत्पुरुषः समासेन तेन दण्डेन जन्यम् इति अर्थः स्वीक्रियते. चक्रभ्रमणम् इति व्यापारः जन्यमस्ति. केन जन्यम् इति चेत् दण्डेन जन्यमस्ति. दण्डः इति कारणमस्ति. अतः कारणेन दण्डेन जन्यं व्यापारं चक्रभ्रमणम् इति अर्थः भवति. तद् जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति. इत्युक्ते जन्यत्वम् इति यत् भावः अस्ति तत् भावः इदानीं व्यापारे चक्रभ्रमणे अस्ति. दण्डेन दण्डेन जन्यमस्ति चक्रभ्रमणम्. अतः दण्डजन्यत्वम् इति भावः चक्रभ्रमणे एव अस्ति.
अस्ति. अतः तत्र तज्जन्यत्वे तज्जन्यत्वम् इति चक्रभ्रमणे अस्ति खलु, व्यापारे अस्ति खलु.
व्यापारे
तत्र व्यापारस्य तज्जन्यत्वं व्यापारे अस्ति. अतः प्रथमदलं व्यापारे अस्ति.
तज्जन्यत्वे इति वदामः चेत् व्यापारे इति अर्थः स्वीकारः.
जन्यत्वे इत्युक्ते तत्र नाम सतिसप्तमी नाम तज्जन्यत्वे खलु. तज्जन्यत्वे सति तज्जन्यजनकत्वं नाम तज्जन्यत्वमपि भवेत् अपि तज्जन्यजनकत्वमपि भवेत्. अतः यदा तज्जन्यत्वम् अस्ति तदा केवलं तज्जन्यजनकत्वं लक्षणं भवति. किन्तु तज्जन्यत्वं भवेत् नो चेत् द्वितीयं कार्यं न करोति.
अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यं, फलम् अस्ति अत्र घटः इत्युक्ते द्वितीयदले तत् जन्यजनकः इति स्वीकुर्मः चेत् अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यमस्ति, फलम् अत्र घटः अस्ति. तत् जन्यजनकत्वम् इत्यत्र दण्डजन्यं फलम्
तत्र अनेन एकं विशेषणम् आगतं खलु.
तज्जन्यत्वं सम्यक् क्षम्यताम्. अनेन एकं विशेषणम् आगतं किन्तु द्वितीयमपि अपेक्षितम्. एकः विशेषः जातम् अत्र तज्जन्यत्वे इति. पुनः द्वितीयः
केवलं तज्जन्यत्वम् इति वदामश्चेत् तद् व्यापारः अपि भवितुमर्हति, घटः अपि भवितुमर्हति खलु. यतोहि द्वयमपि दण्डेन दण्डजन्यत्वं दण्डजन्यत्वं व्यापारे अस्ति, घटे अपि अस्ति.
अस्ति समीचीनम्.
अतः तत्र केवलम् एकं धनं पर्याप्तं
न पर्याप्तं. द्वितीयमपि अपेक्षितं. तद् जन्यजनकत्वमपि चक्रभ्रमणे भवेत्.
इदानीं तत् किम् इति परिशीलयामः. तत् जन्यजनकत्वम् इत्युक्ते किम् इति परिशीलयामः.
तत् इति पुनः दण्डः, जन्यम् इति कार्यं, फलम् अत्र घटः अस्ति. घटः इति अस्माकम् उदाहरणस्य फलम् अस्ति घटः. तत्तु जन्यमस्ति कार्यं च तर्हि तत् इति दण्डः जन्यः इति घटः इति स्वीकुर्मः तत् इति दण्डः तत् जन्यजनकत्वम् इत्यत्र तत् इति दण्डः अस्ति जन्यः इति घटः अस्ति इत्युक्ते तत् जन्यजनकम् इति वदामः चेत् दण्डेन जन्यं घटः इत्युक्ते फलम् इति अर्थः स्वीक्रियते तेन जन्यः तत् जन्यः तस्य जनकः व्यापारः तेन जन्यः इत्युक्ते दण्डेन जन्यः तज्जन्यः तस्य जनकः अस्ति व्यापारः
तज्जन्यः इत्युक्ते घटः घटस्य जनकः व्यापारः
तत् तेन जन्यः हा तेन जन्यः इति व्यापारः
न हा प्रथमभागे प्रथमभागे व्यापारः जन्यः अस्ति दण्डेन जन्यः इति कृतम् इदानीं तत्र नाम दण्डः चक्रभ्रमणं प्रति कारणं घटं प्रति अपि कारणं खलु प्रथमभागे किं वयं कृतवन्तः दण्डः व्यापारं प्रति कारणम् अतः तत्र वयं किं कृतवन्तः तत्र तज्जन्यत्वम् इति उक्तवन्तः खलु दण्डजन्यत्वं चक्रभ्रमणे अस्ति इति तज्जन्यत्वम् इति व्यापारे अस्ति इति तत् कृतवन्तः तत्र एषः सम्बन्धः
इदानीं तेन जन्यः इति पुनः
इदानीं पुनः यदा तेन जन्यः इति अस्ति तदा किं भवति तत्र घटं प्रति कारणम् इति
इत्युक्ते व्यापारेण जन्यः इति अर्थः
न व्यापारः इति इदानीं नास्ति किन्तु तत्र दण्डः घटं जनयति अतः तत्र तत्र इदानीं तत्र तत् इति इदानीं तत्र द्वितीयदलं तत्र किम् अस्ति
द्वितीयदलमस्ति तत् जन्यजनकत्वं
हा इति अत्र तत् इत्युक्ते पुनः दण्डः
दण्डजन्यं जन्यः
दण्डजन्यं किम् अस्ति जन्यम् इत्युक्ते कार्यं फलम् अत्र घटः अतः तत्र एतावत् स्वीकुर्मश्चेत् तज्जन्य इत्युक्ते कार्यजन्य कार्यजन्य अस्ति साक्षात् कार्यं
फलम् इति अस्तु
इति घटः अतः तत्र तज्जन्यं तज्जन्यः इत्युक्ते घटः
अस्तु
अतः तत्र तर्हि तत् इति दण्डः जन्यः इति घटः तेन जन्यः तज्जन्यः इत्युक्ते घटः
दण्डेन जन्यः इदानीं घटः इति
घटः
तस्य जनकः व्यापारः
घटस्य पुनः जनकः व्यापारः खलु नाम घटस्य तत्र घटस्य कारणद्वयमस्ति एकः अस्ति अस्ति साक्षात् व्यापारः अन्यः अस्ति दण्डः अतः तत्र व्यापारः अपि घटस्य जनकः अस्ति खलु अतः तत्र व्यापारः घटस्य जनकः अतः तत्र जनकः कस्य जनकः घटस्य जनकः घटः कीदृशः तज्जन्यः अस्ति घटः खलु
दण्डेन जन्यः घटः तस्य जनकः व्यापारः इति अर्थः
इति अर्थः खलु
घटस्य जनकः व्यापारः
हा घटस्य जनकः व्यापारः घटः कीदृशः घटः दण्डेन जन्यः अतः तत्र
दण्डेन जन्यः घटः तस्य जनकः अस्ति व्यापारः इति
हा अतः दण्डेन जन्यः घटः यः अस्ति तस्य घटस्य जनकः व्यापारः समीचीनं वा
समीचीनम् अत्र जनकं चक्रभ्रमणम् अस्ति दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् अस्ति अत्र जनकम् इति चक्रभ्रमणम् अपि स्यात् यतोहि दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् अस्ति इत्युक्ते घटः इति दण्डेन जन्यः अस्ति सा एव घटः तस्य जनकं चक्रभ्रमणम् इत्युक्ते तेन व्यापारेण एव घटः निर्मीयते अतः जनकः व्यापारः अस्ति चक्रभ्रमणम् इति व्यापारम् अस्ति अतः घटस्य जनकं चक्रभ्रमणं स्यात्
नाम तत्र दण्डः अपि घटं प्रति कारणम् अस्ति किन्तु तत्र एतत् कारणं भवति इत्युक्ते तत्र चक्रभ्रमणरूपेण कारणं भवति नाम खलु तत्र परम्परा अस्ति साक्षात् चक्रभ्रमणं प्रति कारणं चक्रभ्रमणं साक्षात् घटं प्रति कारणं किन्तु दण्डः साक्षात् घटं प्रति कारणम् इति न भवति खलु नाम तत्र परम्परारूपेण अतः एव तत्र मध्ये व्यापारः इति भवति इति उक्तम् अतः तत्र अंशत्रयम् अस्ति एषः व्यापारः मध्ये अस्ति इति कृत्वा वयं किं कुर्मः एषः व्यापारः मध्ये अस्ति अतः व्यापारः दण्डजन्यः अस्ति खलु
व्यापारः आम्
दण्डजन्यः अस्ति खलु अपि घटजनकः अस्ति खलु अपि घटजनकः
अस्ति आम्
इदानीं केवलम् एतद् वदामः अपि तत्र दण्डजन्यः इति वदामः घटजनकः इति वदामश्चेत् तत्र वयं न अवगच्छामः दण्डः अपि घटं प्रति कारणम् इति खलु नाम दण्डः व्यापारं प्रति कारणं व्यापारः घटं प्रति कारणम्
अस्ति
किन्तु दण्डः अपि घटं प्रति कारणं ते खलु अतः तत्र तदपि स्थापनीयमस्ति खलु नाम तत्र अंशत्रयम् अस्ति अपि तयोः मध्ये परस्परसम्बन्धः ये वर्तन्ते तेषामपि तत्र उल्लेखः भवेत् खलु अतः तत्र दण्डजन्यत्वं नाम दण्डेन जन्यः व्यापारः पुनः तत्र
तज्जन्यजनक
नाम व्यापारः जनकम् अस्ति इत्युक्ते एषः भागः किन्तु अत्रापि सम्बन्धः अस्ति कार्यकारणसम्बन्धः तदपि वक्तव्यं खलु दण्डः अपि घटः तयोः मध्ये अपि कारणे कार्यकारणभावः अस्ति अतः तत्र घटः कीदृशः घटः व्यापार तत्र व्यापारः कीदृशः घटस्य जनकः व्यापारः किन्तु घटः कीदृशः घटः दण्डेन जन्यः घटः अतः तज्जन्यघटः तस्य घटस्य जनकं चक्रभ्रमणम् अस्ति
दण्डेन जन्यः तादृश तेन जन्यः चक्रभ्रमणम् इति घटस्य व्यापारम् अस्ति व्यापारः अस्ति
नाम पुनः भगिनि तत्र तज्जन्यम् इत्युक्ते किमस्ति तज्जन्यम् अस्ति चक्रभ्रमणम् तेन तत्र जन्यमस्ति नाम दण्डेन जन्यमस्ति चक्रभ्रमणम् अत्र किमस्ति तत्र तेन वयं किम् अवगच्छामः
चक्रभ्रमणं
प्रति कारणमस्ति खलु दण्डः चक्रभ्रमणं प्रति कारणमस्ति खलु यतोहि दण्डः जनकः चक्रभ्रमणं जन्यमस्ति खलु
सत्यं
जनकः जन्यं यत् कुत्र वदामः कार्यकारणतयोः मध्ये वदामः खलु अत्र दण्डः कारणं चक्रभ्रमणं कार्यं
कार्यमस्ति
इदानीं चक्रभ्रमणं घटं प्रति कारणमस्ति खलु तर्हि घटस्य जनकं चक्रभ्रमणमस्ति खलु
घटस्य
जनकं
चक्रभ्रमणम् इति जनकः अस्ति इदानीं
चक्रभ्रमणं घटं जनयति तर्हि चक्रभ्रमणे जनकत्वम् अस्ति खलु घटजनकत्वम् अस्ति इति यदि वदामः तत्र केवलं किं किं कस्य कस्य उल्लेखः अस्ति
इत्युक्ते चक्रभ्रमणे चक्रभ्रमणे जन्यत्वमपि अस्ति जनकत्वमपि अस्ति इति भावः
इति आगतं किन्तु तत्र केवलं दण्डः व्यापारः तयोः मध्ये यः सम्बन्धः सः उक्तः खलु अपि घटः व्यापारः तयोः मध्ये यः सम्बन्धः सः अपि उक्तः खलु किन्तु दण्डः घटः तयोः मध्ये यः सम्बन्धः न उक्तः खलु
न उक्तः सत्यं
हा अतः एव तत्र तज्जन्यघटः घटः कीदृशः तज्जन्य कारणेन जन्यः घटः तस्य घटस्य जनकं चक्रभ्रमणम् इति तत्र नाम तत्र त्रिकोणम् अत्र अस्ति खलु व्यापारः अस्ति घटः अस्ति तत्र सम्बन्धत्रयम् अस्ति त्रयाणामपि उल्लेखः भवेत् इति समीचीनम्
इदानीं हा अन्तिमभागे इत्युक्तं दण्डः ततः परं फलम् इत्यस्य सम्बन्धार्थं किं वक्तव्यम् इति उक्तवान्
नाम तत्र तत्रापि कार्यकारणभव
भावः भवति
नाम घटः दण्डेन जन्यः खलु
घटः दण्डेन जन्यः सत्यं
अतः तत्र तज्जन्यः इत्युक्ते घटः
तज्जन्यम् इत्युक्ते घटः अस्तु अस्तु
घटस्य जनकम् अस्ति चक्रभ्रमणम् अतः तज्जन्यजनकत्वं चक्रभ्रमणे
अस्तु
अस्तु तर्हि तत्र अन्य कोऽपि पुनः एतदेव पुनः वदेत् समीचीनं भगिनि अवगतम् इति मन्ये खलु
अवगच्छामि महोदय पुनरेकवारं पठामि चेत् पश्यतु
महोदय
मम एकः सन्देहः तत्र तज्जन्यत्वम् इति पदं वयं स्वीकुर्मः चेत् तत्र तत् इति पदं दण्डः एव तत्र जन्यम् इति वयं भ्रमणकार्यं स्वीकुर्मः किल परन्तु द्वितीयपदे तज्जन्यजनकत्वम् इति पदे तत् इति पदं दण्डः एव परन्तु जन्यः घटः इति वयं स्वीकुर्मः
किल इति एव मूलविषये समीचीनं
भेदः अस्ति
समीचीनं
पूर्वपदे तज्जन्यम् इति वयं भ्रमणकार्यं स्वीकुर्मः द्वितीयपदे तज्जन्यम् इति घटं वयं स्वीकुर्मः
समीचीनं
भ्रमः न भवति अस्तु
अतः तत्र अतः समीचीनं भगिनि नाम तज्जन्यत्वे इति तत्र तद् इत्युक्ते कारणं दण्डः जन्यम् इत्युक्ते व्यापारः किन्तु द्वितीयभागे तत् इति पुनः कारणं किन्तु तज्जन्यः इति साक्षात् फलं यत् अस्ति जन्यः प्रथमभागे तज्जन्यः इत्युक्ते व्यापारः द्वितीयभागे तज्जन्यः इत्युक्ते साक्षात् फलं समीचीनं तदेव अस्ति वदतु भगिनि धनश्री भगिनी वदतु
तज्जन्यत्व इति यथा भगिन्या उक्तं व्यापारे अपि अस्ति घटे अपि घटः अपि तज्जन्यः अस्ति व्यापारः अपि तज्जन्यः अस्ति परन्तु जनकत्वं तु केवल व्यापारे अस्ति दण्डे जनकत्वं नास्ति घटस्य जनकत्वं किमर्थं नाम तज्जन्यजनकः जन्यत्वं दण्डजन्यत्वं यदि घटे अस्ति परन्तु दण्डे घटजनकत्वं नास्ति
न भगिनि अतः एकनिमेषः अस्तु अस्तु तत्र प्रथमतया उत्तमप्रश्नः प्रथमतया तत्र तज्जन्यत्वम् इत्युक्ते किमस्ति एकवारं वदतु
तज्जन्यत्वं व्यापारे अस्ति नाम दण्डजन्यत्वं
इत्युक्ते किमस्ति तद् इत्युक्ते
दण्डः
अत्र कारणेन जन्यं
नाम व्यापारः
अत्र किन्तु केवलं तज्जन्यम् इति वदामः तत्र किं किं भवेत् तत्र तज्जन्यत्वे इति वदामः तत् कुत्र
तज्जन्यव्यापारः अपि भवति तज्जन्यः घटः अपि
भवति अतः तत्र केवलं प्रथमदलं वदामश्चेत् अतिव्याप्तिः अस्ति खलु
अतिव्याप्तिः
दोषः भवति घटे घटे अतिव्याप्तिः अस्ति खलु
अस्ति अस्ति
अस्ति इदानीं
परन्तु यत् अनन्तरं पदमस्ति तज्जन्यजनकः
इदानीं तत् तत् स्वीकुर्मः, तज्जन्यजनकः. इदानीं तत्र जनकः, तत्र तद् इत्युक्ते पुनः कारणं, घटः.
कारणं दण्डः.
तद् इत्युक्ते कारणं दण्डः.
जन्य इत्युक्ते इदानीं घटः.
इदानीं घटः इति स्वीकुर्मः. तज्जन्यः इत्युक्ते घटः. इदानीं तस्य जनकः.
न न, मम प्रश्नः, तस्य जनकः व्यापारः किमर्थम् एकं सोपानं पूर्वं व्यापारः अस्ति अतः, परन्तु जन्यत्वं तज्जन्यत्वं नाम एक स्टेप् अनन्तरमपि जन्यत्वम् अस्ति, नाम दण्डजन्यत्वं घटे अस्ति, परन्तु घटजनकत्वं दण्डे नास्ति इति मम प्रश्नः.
घटे नास्ति, घटे नास्ति, सत्यं.
न न, दण्डे नास्ति जनकत्वं. घटे दण्डजनकत्वम् अस्ति, परन्तु दण्डे घटजनकत्वं नास्ति.
किमर्थं घटे किमर्थं तज्जन्यजनकत्वम् अस्ति?
घटे जन्यत्वम् अस्ति महोदय, जन्यत्व नाम घट इति दण्डजन्य अस्ति.
हा, किन्तु तत्र तज्जन्यजनकं जनकः इति अस्ति, इत्युक्ते किम्?
न, व्यापारः अपि भवितुमर्हति, दण्डः अपि भवितुमर्हति इति मम शङ्का.
सत्यं भगिनि, तद् हा इति एव अस्ति भगिनि.
जन्यजनकत्वं नाम व्यापारः अपि दण्डः अपि भवितुम् अर्हति. किमर्थम् अस्माभिः दण्डं न स्वीकृतं, केवल व्यापारः स्वीकृतं जनकत्वं नाम?
समीचीनं भगिनि, नाम तज्जन्यजनकः इति यदि वदामः तदा किं भवति, पुनः अतिव्याप्तिदोषः भवति, नाम दण्डे अपि तत् जन्यजनकत्वम् अस्ति, व्यापारे अपि तत् जन्यजनकत्वम् अस्ति खलु, इति एव भवती वदन्ति अस्ति खलु. नाम केवलम् एतत् धनं स्वीकुर्मश्चेत् तत् जन्यजनकत्वं दण्डे अपि अस्ति, व्यापारे अपि अस्ति,
परन्तु तज्जन्यत्वे तज्जन्यत्वं केवलं व्यापारे अस्ति.
प्रथमजलं स्वीकुर्मश्चेत् अत्र अस्ति,
तत्र अतिव्याप्ति, द्वितीय केवल तदेव तदेव
जनकः इति वदामश्चेत् अत्र अस्ति. अतः एव तत्र दलद्वयम् अस्ति इति कृत्वा केवलं व्यापारः
एक एव आगच्छति तत्.
समीचीनं खलु भगिनि,
समीचीनं. आमाम्.
अतः तत्र दलद्वयमपि अपेक्षितं. तद् इति सर्वदा कारणं, जन्यमिति प्रथमवारं यदि तस्य प्रयोगः भवति तत्र साक्षात् तत्र व्यापारः भवति. तज्जन्यं तज्जन्यः इत्युक्ते व्यापारः प्रथम भागे, प्रथमदले. द्वितीयदले तद् जन्यः इति तत्र साक्षात् फलं, फलं जनयति इति कृत्वा व्यापारः जनकः भवति. अतः तत्र द्वितीयदले तत्र जनकः अस्ति व्यापारः, जन्यः अस्ति कार्यम्. अतः तत्र अंशत्रयमस्ति, दण्डः तत्र कारणं, व्यापारः कार्यं, व्यापारः मध्ये अस्ति इति कथं वदामः? तत्र तस्मिन् तत्र जन्यत्वमपि अस्ति, जनकत्वमपि अस्ति, अपि तत्र अत्रापि कारणं कार्यं तत्रापि कार्यकारणभावः अस्ति इति कृत्वा तत्र तज्जन्यजनकः इति तादृशशैली, तादृशशैली अत्र दत्तमस्ति. अस्तु, तर्हि तत्र धनश्री भगिनी भवती एव तत्र एकवारं तत्र वदतु तत्र किं किम् अस्ति इति. एतत् लक्षणवाक्यं स्वीकृत्य,
लक्षणवाक्यमस्ति तज्जन्यजनक जन तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यम् अत्र दलसार्थक्यम् आवश्यकमस्ति. किमर्थं नाम एकम् एव पदेन एकेन एव पदेन अतिव्याप्तिः भवेत् इत्यर्थः. प्रथमं पदमस्ति तज्जन्यत्वे सति, तज्जन्यत्वे अत्र तत् नाम कारणं दण्डः, जन्यत्व नाम यस्मिन् जन्यत्व अस्ति नाम व्यापारः,
अथवा
अथवा
घटः
व्यापारः एव घटे अस्ति परन्तु अत्र
व्यापारः समीचीनम् अतः व्यापारः कीदृशः तज्जन्यः
तज्जन्यः दण्डजन्यः व्यापारः
कारणेन दण्डेन जन्यः व्यापारः समीचीनः अग्रे
सति नाम सति सप्तमी तज्जन्यजनकः नाम अत्र तत् इत्युक्ते दण्डः तज्जन्य अत्र जन्य इत्युक्ते घटः तस्य तज्जन्यस्य जनकः नाम जन्यस्य जनकः कः अस्ति अत्र व्यापारः अपि भवितुम् अर्हति अथवा दण्डः अपि भवितुम् अर्हति परन्तु एकस्मिन्नेव पदस्य अर्थः यदि स्वीकुर्मः चेत् परन्तु यदि तज्जन्यत्वे इति अपि स्वीकुर्मः पदद्वयम् अपि स्वीकुर्मः चेत् दण्डः इति न तत्र आगच्छति नाम तज्जन्यजनकः इति केवल व्यापारः एव आगच्छति अतः दलद्वयम् आवश्यकम्
आवश्यकं हा समीचीनं भगिनि हा तथैव अस्ति अतः तत्र तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणं वाक्यम् अस्तु तर्हि तत्र अग्रे तत्र आं मृणालिनी भगिनी तत्र अग्रे पठितुम् इच्छति वा
सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं चक्रभ्रमणं च घटस्य कारणं दण्डः साक्षात् घटं प्रति कारणं न भवति चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणम् तर्हि अत्र साक्षात् घटं प्रति दण्डः कारणं न भवति मध्ये यत् व्यापारजन्यः अस्ति खलु तेन आधारेण घटस्य निर्माणं भवति इति
अतः तत्र व्यापारः मध्ये अस्ति व्यापारः तत्र दण्डः व्यापारं प्रति कारणमस्ति वा कारणम् अस्ति अपि चक्रभ्रमणं घटं प्रति कारणम् अस्ति अपि तत्र वयं तत्र परम्परारूपेण नाम साक्षात् नास्ति किन्तु व्यापारद्वारा तत्र दण्डः घटं प्रति कारणमपि अस्ति
मध्ये विद्यमाने यत् व्यापारः अस्ति तत् जन्य अपि अस्ति जनकमपि अस्ति दण्डेन जन्य तथा जनकः अपि अस्ति घटं प्रति जनकः अपि अस्ति
हा इति यत् मध्ये अस्ति समीचीनं भगिनि हा तत्र व्यापारः मध्ये अस्ति इति कृत्वा तत्र जन्यः अपि अस्ति जनकः अपि अस्ति इति अतः तत्र अपि कार्यं प्रति कारणमपि जनकम् अस्ति इति कृत्वा तत्र त्रिकोणरूपेण तत्र अंशत्रयं तत्र सम्बन्धत्रयमपि अस्ति अतः तेषां सर्वेषाम् उल्लेखः लक्षणवाच्ये अस्ति अस्तु भगिनि समीचीनं हा अतः एतावत् तत्र वयं तत्र व्यापारः इत्युक्ते किम् इति अवगतवन्तः प्रश्नः अस्ति वा एतावत् अतः तत्र सर्वे अवगतवन्तः इति मन्ये नाम तत्र तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति इत्युक्ते किमिति सर्वे अवगतवन्तः इति मन्ये अतः तत्र अग्रिमे सप्ताहे तत्र वयं किं कुर्मः तत्र व्यापारः इति किम् इति अवगतवन्तः कः इति अवगतवन्तः इदानीं तत्र विशेषगुणाः तत्र व्यापाररूपत्वेन कल्पिताः इति यद्वाक्यमस्ति विद्याधर्यां तत्र नाम विशेषगुणाः तत्र धर्मः अधर्मः अपि संस्कारः तत्र तेषां तत्र विवरणम् अग्रिमे सप्ताहे भवति अपि एकः अग्रिमे सप्ताहे तत्र डेलैट् सेविङ्ग्स् भवति अतः पुनः तत्र अस्माकं तत्र नियमस्ति तत्र भारतदेशे यः समयः भवति तत्र परिवर्तनं नास्ति किन्तु अमेरिकादेशे तत्र परिवर्तनं भवति अतः तत्र अग्रिमे सप्ताहे तत्र अस्माकं समय तत्र भवति सार्ध अष्टवादनतः दशवादनपर्यन्तम् ई एस् टि इति भवति अस्तु तर्हि सर्वेभ्यो नमः, धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः तर्हि, नमस्कारः,
धन्यवादः महोदय,
धन्यवादः।